यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्। परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे। अनन्याश्चिन्तयन्तो माम् ये जनाः पर्युपासते तेषाम् नित्याभियुक्तानाम् योगक्षेमम् वहाम्यहम्। सदालिम्बवृक्षस्य मूलाधिवासात् सुधाश्राविणम् चित्तमप्यप्रियन्तम् तरुम् कल्पवृक्षाधिकम् साधयन्तम् नमामीश्वरम् सद्गुरुम् साईनाथम् नमामीश्वरम् सद्गुरुम् साईनाथम्। सदा कल्पवृक्षस्य तस्याधिमूले भवद्भावबुद्ध्या सपर्यादि सेवा नृणाम् कुर्वताम् भुक्तिमुक्तिप्रदन्तम् नमामीश्वरम् सद्गुरुम् साईनाथम् नमामीश्वरम् सद्गुरुम् साईनाथम्।